पाषाण एव हरिनीलमणिर्दिनेषु प्रम्लनतां कुवलयं प्रकटीकरोति नौमित्तिको जलतमे च किमा ततस्ते कामाक्षी शून्यमुपमनमपाकलक्ष्म्याः शृङ्कार विभ्रमवती सुतरां सलज्जा नासाग्रमौक्तिकरुचा धृतमन्तः सा श्यामा कटाक्षसुषुमा तव युक्तमेतत् कामाक्षी शुम्भति दिगम्बरवक्त्रबिम्बम् नीलोत्पलेन मधुपेन च दृष्टिपातः कामाक्षी तुल्य इति ते ततमामनन्ति शैत्येन निन्दयति यतन्वहमिन्दुपातान् पादोरुहेण यतसौ कलहायते च